एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः छठ पर्वणः अन्तिम दिनम् अद्य उदीयमानाय सूर्याय अर्घ्य प्रदान पुरस्सरम् पर्वेदम् सम्पद्यमानम् वर्तते। छठ पर्व कार्तिक शुक्ल चतुर्थ्याम् स्नात्वा शुद्धाचरणे स्थित्वा च इह षष्ठ्याम् तिथौ अस्तमिताय सूर्याय अर्घ्य प्रदान पुरस्सरम् सप्तम्याम् तिथौ अद्य उदीयमानाय सूर्याय अर्घ्यम् दत्त्वा समायोज्यते। एतदवसरे गत रात्रितः काष्ठमण्डपोपत्यकासह जनकपुर वीरगंज सहितानाम् बारा पर्सा रौतट प्रवृत्ति जनपदानाम् नदी ह्रद पुष्करिणी प्रवृत्ति जलाशयान् नवबदुरीव विभूष्य तत्र स्थित्वा व्रतालवः इदानीम् उदीयमानाय सूर्याय अर्घ्यम् प्रयच्छन्तः सन्ति। पौराणिक ग्रन्थस्य महाभारतस्य अनुसारेण द्रौपद्या सहितानाम् पञ्चानाम् पाण्डवानाम् अज्ञातवासस्य अवधौ तस्य गुप्तवासस्य सफलतायै सूर्यदेवः आराधितः आसीत्। तस्मिन् समये पाण्डवाः विराटराजस्य प्रासादे गुप्तवासी आसन् इति उल्लिखितम् वर्तते। ह्य षष्ठ्याम् तिथौ उपोष्य अद्य सप्तम्याम् तिथौ उदीयमानाय सूर्याय अर्घ्य प्रदान पुरस्सरम् छठ पर्व सम्पद्यमानम् अस्ति। अस्मिन् पर्वणि उपोष्य सूर्य पूजनेन सन्तान प्राप्तिः सुख समृद्धि लाभः चर्म रोगनाशश्च भवन्तीति धार्मिक विश्वास समाजे चिरात् प्रतिष्ठितो वर्तते। छठ पर्वणः अवसरे ह्य राष्ट्रपतिः रामचन्द्र पौडेलः पाशुपत क्षेत्रस्थिते गुह्येश्वरी स्थाने निर्मितानि छठ पूजास्थलानि प्राप्य षष्ठीमातुः पूजाराधने कृत्वा सूर्याय अर्घ्यम् प्रायच्छत्। प्रतिवर्षम् कार्तिक शुक्ल षष्ठ्याम् तिथौ समायोज्यमानस्य षष्ठी पर्वणः अवसरे राजधान्याः गुह्येश्वरी कमल पोखरी प्रवृत्तिषु स्थानेषु समायोज्यमानायाम् छठ पूजायाम् राष्ट्राध्यक्षस्य रूपेण राष्ट्रपतेः अपि भागी भवनस्य परम्परा वर्तते। तदवसरे राष्ट्रपतेः स्वागतम् गुह्येश्वरी छठ पूजा समितेः पदाधिकारिभिः विहितम् आसीत्। स्थिर शान्तेः विश्वकल्याणस्य च कामनया ह्यस्तन दिवसात् अतिरुद्र विश्वकल्याण विराट महायज्ञः प्रारब्धो वर्तते। नेपाल महर्षि वैदिक प्रतिष्ठानेन समायोजितोऽयम् महायज्ञ नेपाली यजमानानाम् सहयोगेनैव काष्ठमण्डपस्य भ्रिकुटी मण्डपे संचलन वर्तते। महायज्ञः भावातीत ध्यानम् कृत्वा सिद्धिसाधकैः सहस्रैः एकादशाधिकशतेन च आचार्यैः पण्डितेभ्यश्च प्रारब्धोऽस्ति एवम् प्रथमवारम् नेपाले अतिरुद्र विश्वकल्याण विराट महायज्ञ समायोज्यमानोऽस्तीति प्रतिष्ठानस्य अध्यक्ष दीपक प्रकाश वास्तोला सूचयत्। प्रतिष्ठानेन 70+ विक्रमवर्षाद् आराष्टम् आसन्न सते वैदिक गुरूकुलेषु भावातीत ध्यानेन सिद्धिसाधनया च सहितः यज्ञः विद्यमानो वर्तते। महेशयोगिनः नेपालागमनस्य 50 वर्षाणाम् पूरणस्य अवसरे समायोजितस्य स्वर्णमहोत्सवस्य उद्घाटनम् नेपालस्य मौलिक सांस्कृतिक नृत्य प्रदर्शनेन 80 संखवादनम् कृत्वा शोभायात्रया च सह परैः सम्भूतमासीत्। महायज्ञस्य अभ्यन्तरे एव दिवसत्रयात्मकम् वैदिक विज्ञानाधुनिक विज्ञान विषयकम् द्वितीयम् महासम्मेलनम् च समायोज्यमानमस्ति। महासम्मेलने यूरोप अमेरिकादि देशेभ्यः 17+ अधिकानाम् विज्ञानाम् प्रतिनिधिनाम् च सहभागिता जायमानास्तीति आयोजकेन ज्ञापितम् वर्तते। नेकपा एमाले दलेन आगामिनि मार्गशीर्ष मासे सम्पत्स्य मानस्य उपनिर्वाचनस्य कृते प्रत्याशिनः निश्चिताः वर्तन्ते। दलेन एकस्य नगरप्रमुखस्य द्वयोः वडाध्यक्षयोः च कृते प्रत्याशिनाम् नामानि सार्वजनिकृतानि वर्तन्ते। एमाले दलीय नगर समित्या कीर्तिपुर नगरपालिकायाः प्रमुखपदस्य कृते डा सुरेन्द्र मानन्धर, प्रथमवडाक्षेत्रस्य कृते हर्ष महर्जन, चतुर्थवडा क्षेत्रस्य कृते बद्री बुढाथोकी च सर्वसम्मतरूपेण प्रत्याशिनः निश्चिताः वर्तन्ते। यः समायोजितायाम् घोषणासभायाम् नगरप्रमुखस्य प्रत्याशी मानन्धर कीर्तिपुरस्य जनतायाः इच्छायाःनुसारेण जनप्रतिनिधिभिः कार्यम् विधेयम् इति उदैरयत। तदवसरे एमाले दलीय स्थायी समितेः सदस्य राजन भट्टराई, बागमती प्रदेश प्रमुख आनन्द पोखरेलश्च जनतायाम् गत्वा तेषाम् कार्यम् दायित्ववाहिना दत्तचित्तेन च विधेयम् इत्यत्र बलम् प्रायच्छताम्। लुम्बिनी विकास कोषस्य उपाध्यक्ष डाक्टर मार्क्याल लामा बौद्ध विद्वद्भिः भगवतः बुद्धस्य जन्मस्थलस्य लुम्बिन्याः भ्रमणम् विधेयम् इति बलम् ददाति। भारत सर्वकारस्य समायोजनायाम् नयाँ दिल्ली स्थाने सम्पन्ने प्रथम ऐतिहासिक बौद्ध मार्गिणाम् सम्मेलने सम्बोधयन् डाक्टर लामा भगवतः गौतम बुद्धस्य जन्मस्थले लुम्बिन्याम् विश्वस्य समेषाम् बौद्ध मार्गिणाम् विदुषाम् च स्वागताय लुम्बिनी विकासकोषः व्याकुलोस्तीति प्रावोचत। प्रमुख लामा बुद्धस्य शान्तेः सहिष्णुतायाः सत्यसम्बद्धाश्च सन्देशानाम् सम्बद्धानाम् च सन्देशानाम् आविश्वाम् प्रसारणम् बौद्धदर्शन परम्परयोः अतिरिक्तम् अन्वेषणानुसन्धाने च आवश्यकाः सन्तीति बलम् प्रादात्। यः सम्पन्ने सम्मेलने नेपालेन सहितानाम् ऐशैक देशानाम् बौद्ध मार्गिणाम् विदुषाम् च सहभागिता सिद्धिति लुम्बिनी विकास कोषेण ज्ञापितम् वर्तते। त्रिभुवनान्तर्राष्ट्रिय विमानस्थलम् अद्यतः आसन पञ्चानाम् मासानाम् अवधौ प्रतिदिनम् दश घण्टाः पिधाप्यते। नेपाल नागरिकोड्डयन प्राधिकरणस्य अनुसारेण विमानस्थलस्य स्तरोन्नत्यै अद्यतः प्रतिदिनम् दश घण्टाः उड्डयनम् पिधाप्य विमानस्थलस्य विस्तारस्य कार्यम् विधीयमानम् वर्तते। विमानस्थलस्य स्तरोन्नत्याः कार्यदम् पूरयितुम् पञ्चदश अब्जानि रूप्यकाणि अपेक्षन्ते इति आयोजनाया ज्ञापितम् अस्ति। स्तरोन्नतेः क्रमे रात्रौ दशवादनात् प्रातः अष्टवादनम् यावत् सर्वाणि उड्डयनानि पिधाप्यमानानि सन्ति। सम्प्रति प्रातः षड्वादने विमानस्थलम् उद्घाट्य रात्रौ द्विवादनम् यावत् सञ्चाल्यमानम् वर्तते। मकवानपुर जनपदस्य भीमफेदी ग्रामपालिकायाः अष्टमवडा क्षेत्रस्य दोबान स्थिते नेपाली सेनायाः सिस्नेरी वर्तिनी मार्ग निर्माण कार्यदले कार्यरतः एको जन विद्युत प्रवाह स्पर्शेण मृत अन्य जनद्वयम् आहतञ्च वर्तन्ते। सेनायाः कार्यदले शिविरस्य अन्ते कार्यरतावस्थायाम् सञ्चारोपकरणस्य संयोजनस्य क्रमे विद्युत्तन्त्र्याः स्पर्शनानन्तरम् विद्युत् प्रवाह स्पर्शेन डडेलधुरा जनपदस्य गन्याबधुरा ग्रामपालिकायाः प्रथम वडा क्षेत्र निवासी 39 वर्षीय लेसनायक पदम बहादुर दियाल घटनास्थले एव मृत्युस्थिति मकवानपुर जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी नायब परीक्षक श्यामु अरियाल ज्ञापयति इति समाचारः।